उपे मसृक्षिपादजुर्वचस्याम् च नो दधीतनाद्यो गिरो मे अपान्नपादाशुहेमा कुवित्स सुपेशसस्करति जोषि शद्धि इमं स्वस्मै हृद आसुतष्टं मन्त्रं वोचेम कुवितस्य वेदत अपान्नपादसुर्यस्य वह्ना विश्वान्यर्यो भुवना जान समन्याजन्त्युपयन्त्यन्याः समानभोर्वन्नद्यः प्रणन्ति तमो शुचिं शुचयो दिवां समपान्नपादं वरितस्थुरापाः तमस्मे राजुपतयो युवानं मरमृज्यमानाः परिजन्त्यापाः स शुक्रेभिः शिक्वभिरेव तस्मे दीदाया निध्मो घृतनिर्णिगप्सो अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम् कृता इवोपहि प्रसरस्रे अप्सु सपेजोषम् धयति पोर्भसो नाम् अश्वस्यात्र जरिभास्य च स्वर्द्रुहो रिषः सम्रजः पाहि सूरेन आमासु पोर्षु परो अप्रभृष्यन्नारातजो विनशन्नानृतानि स्व आदमे सुदुघाजस्य धेनुस्वधाम्बीपाय सुध्वन्नमद्दे सो अपान्नपादोर्जयन्नप्स्वा अन्तर्वसुदेजाज विधते विभाति यो अप्स्वा शुचिनादैव्येन रतावाजस्र उर्विजा विभाति वजा इदन्या भुवनान्यस्य प्रजाजन्ते विरुधश्च प्रजाभिः अपान्नपादाह्यस्थादुपस्थम् जिह्मानामोर्ध्वो विद्युतम् वसानः तस्य ज्येष्ठम् महिमानम् वहन्तेर्हिरण्यवर्णाः परिजन्ति जह्वेः हिरण्यरोपः स हिरण्यसन्द्रगपान्नपाच्छेदु हिरण्यवर्णः हिरण्यजात्परिजोरेर्निषद्या हिरण्यदादत्यन्नमस्मै तदस्यानि एकमुतचारुनामा अपीच्यम् वर्धते नब्दुरपाम् यमिन्धते जुवतजः समित्था हिरण्यवर्णम् घृतमन्नमस्य अस्मै बहो नाम ममाजसख्ये यज्ञैर्विधेम नमसा हविर्भिः संसानुमार्ज्मिदिधिषामि बिल्बैर्दधाम्यन्नैः परिवन्दरग्भिः स ईं मृषा जनयत्ता सुगर्भम् स ईं शिशुर्धयति तम् रिहन्ति स अपान्नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेश अस्मिन् पदे परमेतस्थिवां समध्वस्मभिर्विश्वः आदिदिवांसम् आपो नत्रे घृतमन्नम् वहन्ति स्वयमत्कैः परिदीयन्ति जह्वेः अजाम् समग्ने सुक्षितिम् जनाजाजाम् समभगवद्भ्यः सुवृक्तिम् विश्वम् तद्भद्रम् यदवन्ति देवा बृहद्वदेम विदधे सुवीराः